एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली भाषते नेपालस्य समृद्धिम् राष्ट्रिय हितम् परिवर्तनम् च केन्द्रीय संस्थाप्य अग्रेवर्धनीयम्। नेपाल बुद्धिजीवी परिषदः एकादश राष्ट्रिय महाधिवेशनम् पूर्वे दिहु काष्ठमण्डपे उद्घाटयन् प्रधानमन्त्री ओली व्यक्तिगत महत्वाकांक्षायाः अपेक्षया राष्ट्रिय हितम् केन्द्रे संस्थाप्य अग्रेवर्धनीयम् इति प्रावोचत्। प्रधानमन्त्री ओली उचित विषयाणाम् समर्थने विहिते सति दलानाम् स्यूतधारकः इत्युक्त्वा सर्वत्र न्यूनतायाः दर्शन प्रवृत्त्या उपरि उत्थातुम् विचलितेन विना राष्ट्रियैकतायाः परिवर्तनस्य च विचारम् वोढुञ्च अनुरुणत्। ह्य एव काष्ठमण्डपे राष्ट्रिय स्वास्थ्यकर्मी महासंघ नेपालस्य पञ्चमम् राष्ट्रिय महाधिवेशनम् सम्बोधयन् प्रधानमन्त्री ओली चिकित्सा क्षेत्रस्य महत्वम् मानवानाम् जीवनेन सह सम्पृक्तम् भवति, त्यतः स्वस्य राष्ट्रिय दायित्वात् विमुखा न भवितुम् स्वास्थ्यकर्मिणः अनुरुणत। कार्यक्रमे प्रधानमन्त्री ओली निरंकुश राजतन्त्रे विकास सुशासन योरभावात् जनतायाः दीर्घकालिक संघर्षात् लोकतान्त्रिक गणतन्त्रस्य स्थापना सम्भूता अस्ति इति उदैरयत्। तदवसरे प्रधानमन्त्री ओली गणतन्त्रस्य रक्षायाः दायित्वम् समेषाम् सचेतस्क नागरिकाणाम् वर्तते इत्यतः एकताबद्धः भवितुम् बलम् प्रादात्। य एव कान्तिपुर संचार समूहेन काष्ठमण्डपे आयोजिते कार्यक्रमे एकस्मिन् कर्मचारिणी प्रश्ने उत्थिते एव प्रतिपक्षिदलेन गृहमन्त्रिणः रमेश लेखकस्य त्यागपत्रस्य याचनम् निराधारम् अनुचितम् चास्ति इति समस्पष्टयत्। प्रधानमन्त्री ओली गृहमन्त्रिणी लेखके कथम् विधोऽपि आरोपः नास्ति, केनापि निकायेन अनुसन्धानम् विधीयमानम् च न वर्तते इत्यवस्थायाम् विपक्षिदलैः असम्भव याचनाम् प्रस्तुत्य सदनम् नावरोध्यमिति बलम् प्रादात्। उपप्रधान अर्थमन्त्री विष्णुप्रसाद पौडेलः आगामिनः आर्थिक वर्षस्य कृते सर्वकारेण आनीतस्य आयव्ययिकस्य निर्माणस्य क्रमे आधारभूत सिद्धान्तस्य मूल्यमान्यतायाः सिम्नस्य अनुसरणम् विहितमस्ति इति सूचयति। नेपाल आर्थिक पत्रकार संघेन ह्य काष्ठमण्डपे आयोजिते आयव्ययिक प्रस्तुतेः अनन्तरकालिकी विमर्शने अर्थमन्त्री पौडेलः परिश्रमेण कार्यम् विहितम् सद् राजस्वस्य लक्ष्यमपि सहजतया अधिगन्तुम् शक्यते इति प्रत्यपादयत्। अन्तर्राष्ट्रिय स्तरीय ऋण सहयोगमपि विचार्य आयव्ययिकम् निर्मितम् अवर्तते इति भाषमाणः मन्त्री पौडेलः श्रोतसः अनुमानमपि उचितरूपेण विहितमस्ति इति प्रतिक्रियायाः प्रापणात् तस्य प्रभावकारिणः परिचालनात् लक्ष्यम् पूरयितुम् शक्यते इति विश्वासम् व्यक्तवान्। कार्यक्रमे पूर्वार्थमन्त्री जनार्दन शर्मा विगतकालिक नैरन्तर्यस्य रूपेण आनीतेन आयव्ययिकेन अर्थतन्त्रे सुधारः नागरिकाणाम् जीवने च समृद्धिम् आनेतुम् न शक्यते इति अभाषत। कार्यक्रमे राष्ट्रिय योजना आयोगस्य उपाध्यक्षः प्राध्यापकः डाक्टर शिवराज अधिकारी, नेपाल उद्योग वाणिज्य महासंघस्य अध्यक्षः चन्द्रप्रसाद ढकालः, नेपाल चेम्बर अफ कमर्स संस्थायाः अध्यक्षः कमलेश कुमार अग्रवालः, नेपाल उद्योग परिसंघस्य पूर्वाध्यक्षः विष्णु अग्रवाल, नेपाल निर्माण व्यवसायी महासंघस्य अध्यक्षः रवि सिंहश्च आयव्ययिकमाश्रित्य स्वीय धारणाम् व्यक्तवन्तः। वर्षाणाम् सहकालस्य च देवत्वेन प्रसिद्धस्य रक्तमत्स्येन्द्रनाथस्य रथयात्रान्तर्गतम् अद्य पारम्परिकम् सांस्कृतिकम् च भोटो जात्रेति नाम्ना प्रथितम् कञ्चुक प्रदर्शन पर्व समायोज्यमानमस्ति। पुरा कर्कुटक नागिन सुनागिन्यः नेत्रस्योपचारम् कुर्वते वैद्याय प्रदत्तम् रत्नमयम् कञ्चुकम् केनचन प्रेतेन चोरितमासीत्। ततः रक्तमत्स्येन्द्रनाथस्य यात्रायाः अवसरे बहवो जनाः दर्शनार्थम् आगच्छन्ति, तदानीं तत् कञ्चुकमपि प्राप्येत इति मत्वा आगतेन वैद्येन चोरः प्रेतः निगृहीतः। परन्तु कञ्चुकम् कस्यास्ति इति उभयोर्मध्ये विवादः सञ्जातः। ततः विवाद समाधानाय राज्ञः गुणकामदेवस्य पार्श्वे उभावपि प्राप्तौ। राज्ञा च उभयोर्मध्ये येन प्रमाणत्वेन साक्षिणम् आनीय कञ्चुकस्य स्वामित्वम् प्रमाणीक्रिय प्रदीयते तस्मै एव कंचुकं प्रदीयते उक्तमासीत्। परन्तु कारणवशात् वैद्येन प्रमाणम् आनेतुं न शक्तम्। ततः राज्ञा प्रतिवर्षं रथस्योपरि गत्वा कंचुकमिदं कस्य अस्ति इति पृष्ट्वा कंचुक प्रदर्शनस्य परम्परा प्रारब्धेति ऐतिह्यं वर्तते। ऐतिह्यानुसारेणैव प्रतिवर्षं रक्तमत्सेन्द्रनाथस्य रथयात्रा जावलाखेल प्रापणस्य चतुर्थ दिने कंचुक प्रदर्शन पर्व समायोज्यते। गत बृहस्पतिवासरे मत्स्येन्द्रनाथस्य रथस्य ललितपुर जनपदस्य लगनखेलस्थानात् जावलाखेलस्थानं यावत् प्राप्तेः अनन्तरं रथयात्रा समाप्ता वर्तते। यात्रेयं ललितपुर जनपदस्यैव पुलचोक स्थानात् प्रारब्धा आसीत्। जावलाखेलस्थानं यावत् रथयात्रां कृत्वा ततः रक्तमत्सेन्द्रनाथं दोलायां स्थापयित्वा बुङ्मतीस्थानं यावत् प्रापणस्य परम्परा वर्तते। अतः परं मत्सेन्द्रनाथस्य मूर्तिं दोलायां स्थापयित्वा वाद्यवादनैः सह तस्या मूर्तेः बुङ्मतीस्थानं प्रापणानन्तरमेव अस्य वर्षस्य सम्पूर्ण यात्रा समाप्स्यते। रथयात्रेयं नेपालस्यैव सर्वापेक्षया अधिककालं मासद्वयं यावत् सञ्चाल्यमाना यात्रा अस्ति इति प्रथितं वर्तते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति सर्वकारेण आधुनिक नेपालस्य कार्ययोजना उच्च प्राथमिकतायां स्थापिता अस्ति। जापान देशस्य राजधान्यां टोकियो नगरे गत शुक्रवासरे सम्पन्नम् ऐसयिक प्रशान्त दूरसंचार मन्त्री स्तरीयम् उपवेशं सम्बोधयन् मन्त्री गुरूङ अत्याधुनिकार्थतन्त्रस्य वृद्ध्या सहैव सुरक्षितस्य समावेशिनः अवसरयुक्तस्य च अत्याधुनिक युगस्य निर्माणम् इप्सितमस्तीति अवदत्। चीनभ्रमणे विद्यमानायाः पूर्वराष्ट्रपतेः विद्याभण्डारिणः चीनदेशस्य उपराष्ट्रपतेः हानसिंह इत्यस्य च मध्ये ह्य मेलवार्ता सम्भूता अस्ति। तदवसरे अनयोर्मध्ये नेपाल चीनदेशयोः पारस्परिक सम्बन्धस्य अभिरुचिश्च विविधेषु विषयेषु विमिष्टमस्तीति ज्ञापितं वर्तते। नेपाल तैल निगमेन डीजल तैलन्धनस्य मृत्तिका तैलस्य पेट्रोल तैलन्धनस्य च मूल्यं वर्धितमस्ति। निगम संचालक समितेः उपवेशेन डीजल तैलन्धनस्य मृत्तिका तैलस्य मूल्ये प्रतिलिटरमितं एकरूप्यकं पेट्रोल तैलन्धनस्य मूल्ये प्रतिलिटरमितं द्वे रूप्यके च वर्धितानि सन्ति। निगमेन उड्डयनेन्धनस्य मूल्यं तु न्यूनीकृतं वर्तते। नेपाले वर्षायामस्य प्रारवणस्य चतुर्विंशतेः घण्टानाम् अनन्तरमेव नेपालस्य विभिन्नेषु क्षेत्रेषु जलप्लवेन क्षति प्रापिता अस्ति। राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य प्रवक्तु रामबहादुर केसी इत्यस्य अनुसारेण ह्यस्तन दिवसस्य अविरल वृष्टेः कारणात् धरान धनकुटा मार्गखण्डस्य सागुरीगढ़ी ग्रामपालिकायाः फेदीस्थानस्य शतमीटर परिमितः मार्गः ल्यौतिखोलिकया प्रवाहितोऽस्ति। खोलिकायाः जलप्लवेन प्रवाहानन्तरं प्रातः कालादेव अवरुद्ध मार्गः ह्य सायंकालात् एकपक्षतः सञ्चालितोऽस्ति इति कोशी प्रदेश प्रहरी कार्यालयस्य प्रवक्ता भीमबहादुर दाहाल अज्ञापयत्।